अथ सप्ततितमोऽध्याय। भगवान श्री कृष्ण की नित्यचर्या और उनके पास जरासंध के कैदी राजाओं के दूत का आना। श्री शुक उवाच अथो सस्युपवृत्तायां कुक्कुटान् कूजतो शपन् गृहीत कंठ्यः पतिभिर्माधव्यो विरहातुरः वयांसरुरुवन् कृष्णं बोधयन्तीव बन्दिनः गायत्सु अल्स्वनिद्राणि मन्दारवनवायुभिः मुहूर्तं तन्तु वैदर्भिर्नामृश्यदति शोभनम् परिरम्भण विश्लेषाद् प्रिये बाह्वन्तरं गता ब्राह्मे मुहूर्त उत्थाय वायुपस्पृश्य माधवः दध्यौ प्रसन्नकरण आत्मानं तमसः परम् एकं स्वयं ज्योतिरनन्यमव्ययम् स्वसंस्थया नित्यनिरस्तकल्मषम् ब्रह्माख्यमस्योद्भवनाशहेतुभिः स्वशक्तिभिर्लक्षितभावनिर्वृतिम् अथा प्लुतोऽम्भस्यमले यथाविधि क्रियाकलापम् परिधाय वाससि चकार सन्ध्योपगमादिसप्तम हुतानलो ब्रह्म जजापवाव्यतः उपस्थायार्कमुद्यन्तम् तर्पयित्वात्मनः कलः देवान् ऋषीन् पितॄन् वृद्धान् विप्रान्नभ्यर्च चात्मवान् धेनूनाम् रुक्मशृङ्गीणाम् साध्वीनाम् मौक्तिकस्रजाम् पयस्विनीनाम् ग्रीष्टीनाम् सवत्सानाम् सुवाससाम् ददौ रूप्यखुराग्राणाम् क्षौमाजिनतिलैः सह अलङ्कृतेभ्यो विप्रेभ्यो बद्धम् बद्धम् दिने दिने गोविप्रदेवतावृद्ध गुरुन् भूतानि सर्वशः नमस्कृत्यात्मसम्भूतिर्मङ्गलानि समस्पृशत् आत्मानम् भूषयामास नरलोकविभूषणम् वासोभिर्भूषणैर्स्वीयैर्दिव्यसृगनुलेपनैः अवेक्षाज्यम् तथा दर्शम् गोवृषद्विजदेवतः कामांश्च सर्ववर्णानाम् पौरान्तः पुरचारिणाम् प्रदाप्य प्रकृतिः कामैः प्रतोष्य प्रत्यनन्दत संविभज्याग्रतो विप्रान् शक्ताम्बूलानुलेपनैः सुहृदः प्रकृतिर्दारान् उपायुङ्क्त ततः स्वयम् तावत्सूतौपानीय स्यन्दनम् परमाद्भुतम् सुग्रीवाद्यैर्हयर्युक्तम् प्रणम्यावस्थितोग्रतः गृहीत्वा पाणिना पाणि सारथेस्तमथारुहत् सात्यक्यूधव संयुक्तः पूर्वाद्रिमिव भास्करः ईक्षितन्तः पुरस्त्रीणाम् सव्रीड प्रेम वीक्षितैः कृच्छ्राद् विशिष्टो निरगाद् जातहासो हरन्मनः सुधर्माख्याम् सभाम् सर्वैर्वृष्णभिः परिवारितः प्राविसर्जन्निविष्टानाम् न सन्त्यङ्ग स दुर्मयः तत्रोपविष्टः परमासने विभुः बभौ स्वभाषा ककुहो बभाषयन् भृतो नृसिंहैर्जदुभिर्जदुत्तमो जथो दुराजो दिवितारकागणैः तत्रोपमन्त्रिणो राजन्नानाहास्यरसैर्विभुम् उपतस्थूर्णकाचार्यान्नर्तक्यस्ताण्डवैः पृथक् मृदङ्गवीणामुरज वेणुतालधरस्वनहे ननृतुर्जगुस्तुष्टुवुश्च सूतमागधबन्दिनः तत्राहुर्ब्राह्मणा केचिद् आसीना ब्रह्मवादिनः पूर्वेषाम् पुण्यजससाम् राज्ञाम् च कथयत् कथाः तत्रैकः पुरुषो राजन् आगतो पूर्वदर्शनः विज्ञापितो भगवते प्रतिहारैः प्रवेशितः स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः राज्ञामावेदयद्दुःखम् जरासन्धनिरोधजम् ये च दिग्विजये तस्य सन्नतिम् न जयुर्नृपः प्रसह्य रुद्धास्तेनासन् ऐते द्वे गिरिव्रजे कृष्ण कृष्णा प्रमेयात्मन् प्रपन्न भयभञ्जन वयम् त्वाम् शरणम् यामो भवभीतः पृथक् धियः लोको विकर्म निरतः कुशले प्रमत्तः कर्म लयम् त्वदुदिते भवदर्चनेष्वे यस्तावदस्य बलवानिह जीविताशाम् सद्यः छिनत्य निमिषाय नमोऽस्तु तस्मै लोके भवान् जगदिनः कलयावतीर्णः सद्रक्षणाय खलनिग्रहणाय चान्यः कश्चित्तदीयमतियातिनिदेशमीश किं वा जनः स्वकृतमिच्छति तन्न विद्महम् स्वप्नायितम् नृपसुखम् परतन्त्रमीश शश्वद्भयेन मृतकेन धुरम् वहामः। हित्वा तदात्मनि सुखम तदनीह लभ्यम क्लिश्यामहेति कृपणास्तव माययेह। तन्नो भवान प्रणत शोक हरांघ्रि युग्म बद्धान वियुंस मगधाभय कर्म पाशात यो भूभुजो युतमतंगज वीर्जमेको बिभ्रद रोध भवने मृगराडिवाभिः यो वै त्वया द्विनवकृत्व उदात चक्र भग्नो मृधे खलु भवन्तमनन्त वीर्जम् जित्वा निर्लोक निरतम् सकृदूढ दर्पो युष्मत् प्रजा रुजति नो जित तद्विधेहि। दूतौ वाच इति मागध समृद्ध भवद्दर्शन कांक्षिणः प्रपन्नः पादमूलम् ते दीनानाम् संविधीयताम्। श्रीशुक उवाच राजदूते ब्रुवत्येवम् देवर्षिः परमद्युतिः बिभ्रत् पिङ्गजटाभारम् प्रादुरासीर्जथा रविः। तम् दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः बबन्द उत्थितः शीर्षणा ससभ्यः सानुगो मुदा सभाजयित्वा विधिवत् कृतासन परिग्रहम् बभाषेषु नृतैर्वाक्ये श्रद्धया तर्पयन् मुनिम् अपि सुदद्य लोकानाम् त्रयाणाम् कुतो भयम् ननु भूयान् भगवतो लोकान् पर्यटतो गुणः नहि ते विदितम् किञ्चित् लोकेष्विश्वर कर्तिषु अथ पृच्छामहे जुष्मान् पाण्डवानाम् चिकीर्षितम्। श्रीनारद उवाच दृष्टा मया ते बहुशो दुरत्यया माया विभो विश्वसृजश्च मायिनः भूतेषु भूमंश्चरतः स्वशक्तिभिर्वहनेरिवच्छन्न रुचो न मेद्भुतम् तवेहितम् कोऽर्हति साधु वेदितुम् स्वमाययेदम् सृजतो नियच्छतः यद्विद्यमानात्मतयावभाषते तस्मै नमस्ते स्वविलक्षणात्मने। जीवस्य यः संसरतो विमोक्षणम् न जानतो नर्थवः शरीरतः लीलावतार हि स्वजसः प्रदीपकम् प्रज्वालयत्वा तमहम् प्रपद्ये। अथाप्याश्रावये ब्रह्मन् नरलोक विडम्बनम् राज्ञः पैतृष्वशेयस्य भक्तस्य च चिकीर्षितम्। जक्षति त्वाम् मखेन्द्रेण राजसूयेन पाण्डवः पारमेष्ठकामो नृपतिस्तद्भवाननुमोदताम्। तस्मिन् देव क्रतुवरे भवन्तम् वै सुरादयः दिदिक्षवः शमिष्यन्ति राजानश्च यशस्विनः। श्रवणात् कीर्तनाध्यानात् पूयन्तेऽन्ते वशायिनः तव ब्रह्ममयस्येष किमुतेक्षाभिमर्षिणः। यस्यामलम् दिविजसः प्रथितम् यसायाम् भूमौ च ते भुवनमङ्गल दिग्वितानम् मन्दाकिनीति दिवि भोगवतीति चाधो गङ्गेति चेह चरणाम् विपुनाति विश्वम्। श्रीशुक उवाच तत्र ते स्वात्मपक्षेषु अगृणत्सु विजिगीषया वाचः पेशहि स्मयन् भृत्यम् उद्धवम् प्राह केशवः। श्रीभगवान् उवाच त्वम् हि नः परमम् चक्षु सुहृन्मन्त्रार्थतत्त्ववित् तथात्र ब्रूह्यनुष्ठेयम् श्रद्धधमः करवाम तत् इत्पामन्त्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत्। निदेशम् शिरसाधाय उद्धवः प्रत्यभाषत। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे भगवद्यान विचारे सप्ततितमोऽध्यायः।